ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। श्रीशुक उवाच, क्वचिद्वनाशाय मनो दधत् व्रजात् प्रातः समुत्थाय वयस्य वत्सपान्। प्रबोधयन् शृङ्गरवेण चारुणा विनिर्गतो वत्स पुरः सरो हरिः। तेनैव साकं पृथुका सहस्रशः स्निग्धाः सुशिक्वेऽत्र विषाणवेणवः। स्वान् स्वान् सहस्रो परिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा। कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् चारयन्तोर्भलीलाभिर्विजरुस्तत्र तत्र। फलप्रवालस्तबकसुमनः पिच्छधातुभिः काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन्। मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञाता नाराच्च चिक्षिपुः। तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः। यदि दूरम् गतः कृष्णो वनशोभेक्षणायतम् अहम् पूर्वमहम् पूर्वमिति संस्पृश्य रेमिरे। केचिद्वेणोन्वादयन्तोध्मान्तः शृङ्गाणि केचन, केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे। विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः, बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः। विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान्, विकुर्वन्तश्च तैः साकम् प्लवन्तश्च पलाशिषु। साकम् भेकैर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः, विहसन्तः प्रतिच्छाया शपन्तश्च प्रतिस्वनान्। इत्थम् सताम् ब्रह्मसुखानुभूत्या दास्यम् गतानाम् परदैवतेन, मायाश्रितानाम् नरदारकेण साकम् विजर्रुः कृतपुण्यपुञ्जाः। यत्पादपांसुर्बहुजन्मकृच्छ्रुतो धृतात्मभिर्योगिभिरप्यलभ्यः, स एव यद्दृग्विषयः स्वयम् स्थितः किम् वर्ण्यते दिष्टमतो व्रजौकसाम्। अथागनामाभ्यपतन्महासुरस्तेषाम् सुखक्रीडनवीक्षणाक्षमः। नित्यम् यदन्तर्निजजीवितेऽप्सुभिः पीतामृतैरप्यमरैः प्रतीक्षते। दृष्ट्वार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः सबकी बकानुजः। अयम् तु मे सोदरनाशकृत्तयोर्द्वयोर्ममैनम् सबलम् हनिष्ये। एते यदा मत्सुहृदोऽस्तिलापः कृतास्तदा नष्टसमाव्रजौकसः। प्राणे गते वर्ष्मसुकानुचिन्ता प्रजासवः प्राणभृतो हि एते। इति व्यवस्या जगरम् बृहद्वपुः सयोजनायाम महाद्रिपीवरम्। धृत्वाद्भुतम् व्यात्रगुहाननम् तदा पथिव्यशेतग्रसनाशया खलः। धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः। ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः। दृष्ट्वा तम् तादृशम् सर्वे मत्वा वृन्दावनश्रियम् व्याप्ता जगरतुण्डेन युत्प्रेक्षन्ते स्म लीलया। अहो मित्राणि गदत सत्त्वकूटम् पुरः स्थितम् अस्मत्सङ्ग्रसनव्याप्त व्यालतुण्डाय तेन वा। सत्यमर्ककरारक्तमुत्तरा हनुवद्घनम् अधरा हनुवद्रोधस्तत्प्रतिच्छाय यारुणम्। प्रतिस्पर्धेते सिक्किभ्याम् सव्यासव्येन गोदरे। तुङ्गशृङ्गालयोपेतास्तद्दंष्ट्राभिश्च पश्यत। आश्रितायाम मार्गोऽयम् रसनाम् प्रति गर्जति, येषामन्तर्गतम् ध्वान्तमेतदप्यन्तराननम्। दावोष्णखरवातोऽयम् श्वासवद्भाति पश्यत। तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत्। अस्मान् किमत्र ग्रसिता निविष्टानयम् तथा चेद्बकवद्विनङ्क्ष्यति। क्षणादनेनेति बकार्युषन्मुखम् वीक्ष्योद्धसन्तः करताडनैर्ययुः। इत्थम् मिथो तथ्यमतज्ञभाषितम् श्रुत्वा विचिन्त्येत्यमृषा मृषायते। रक्षो विजित्वाखिलभूतहृत्स्थितः स्वानाम् निरोद्धुम् भगवान् मनोदधे। तावत् प्रविष्टास्त्वसुरोदरान्तरम् परम् न गीर्णा शिशवः सवत्साः। प्रतीक्षमाणेन बकारिवेशनम् हतस्वकान्तस्मरणेन रक्षसा। तान् वीक्ष्य कृष्ण सकलाभयप्रदो यनन्यनाथान् स्वकरादवच्युतान्। दीनांश्च मृत्योर्जठराग्निघासान् घृणार्जितो दिष्टकृतेन विस्मितः। कृत्यम् किमत्रास्य खलस्य जीवनम् न वा अमीषाम् च सताम् विहिंसनम्। द्वयम् कथम् स्यादिति संविचिन्त्य तज्ज्ञात्वा विषत्तुण्डमशेष दृग्घरिः तदा घनच्छदा देवा भयाद्धाहेति चक्रुषुः दर्शुर्ये च कंसाद्यः कौनपास्त्वघबान्धवाः तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् चूर्णीचिकीर्षोरात्मानम् तरसा बवृधे गले ततोऽतिकायस्य निरुद्धमार्गिणो युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ पीना हि भोगोत्थितमद्भुतम् महज्योतिः स्वधाम्ना ज्वलयद्दिशो दश प्रतीक्षखेव स्थितमीश निर्गमम् विवेश तस्मिन्मिषताम् दिवौकसाम् ततोऽतिरिष्टा स्वकृतो कृतार्हणम् पुष्पैः सुरा अप्सरसश्च नर्तनैः गीतैः सुगावाद्यधराश्च वाद्यकैस्तवैश्च विप्राजयनिःस्वनैर्गणाः तदद्भुतस्तोत्र सुवाद्यगीतिका जयादिनैकोत्सवमङ्गलस्वनान् श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद् दृष्ट्वा महीषस्य जगाम विस्मयम् राजन्नाजगरम् चर्म शुष्कम् वृन्दावनेऽद्भुतम् व्रजौकसाम् बहुतिथम् बभूवा क्रीडगह्वरम् एतत् कौमारजम् कर्म हरेरात्मा हि मोक्षणम् मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे नैतद्विचित्रम् अनुजार्भमायिनः परावराणाम् परमस्य वेधसः अघोऽपि यत्स्पर्शन धौतपातकः प्रापात्म्यसाम्यम् त्वसताम् सुदुर्लभम् सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीम् ददौ गतिम् स एव नित्यात्मसुखानुभूत्यभिव्युदस्तमायोऽन्तर्गतो हि किम् पुनः सूत उवाच इत्थम् द्विजा यादवदेव दत्तः श्रुत्वा स्वरातुश्चरितम् विचित्रम् पप्रच्छ भूयोऽपि तदेव पुण्यम् वैयास किम् यन्निगृहीत चेताः राजोवाच ब्रह्मन् कालान्तरकृतम् तत्कालीनम् कथम् भवेत् यत्कौमारे हरिकृतम् जगुः पौगण्डकेऽर्भकाः तद्ब्रूहि मे महायोगिन् परम् कौतूहलम् गुरो नूनमेतद्धरेरेव माया भवति नान्यथा वयम् धन्यतमालोके गुरोऽपि क्षत्रबन्धवः यत्पिबामो मुहुस्त्वत्तः पुण्यम् कृष्णकथामृतम् सूत उवाच इत्थम् स्मपृष्टः स तु बादरायणि तत्स्मारितानन्तरिताखिलेन्द्रियः कृच्छ्रात् पुनर्लब्ध बहिर्दृशिः शनैः प्रत्याहतम् भागवतोत्तमोत्तम ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।